एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा संघीय संसदः द्वाभ्यामेव सदनाभ्याम् सर्वकारेण आनीतः विभिन्नः पञ्चः अध्यादेशः स्वीकृताः सन्ति प्रतिनिधिसभायाः गत बुधवासरस्योपवेशात् स्वीकृतः पञ्चः अध्यादेशः राष्ट्रियसभायाः ह्यस्तनोपवेशेन स्वीकृताः सन्ति उपवेशेन एतद् विक्रमवर्षीयाः सुशासन प्रवर्धन सार्वजनिक सेवा प्रदान सम्बद्धान् कतिचित् नेपालाधिनियमान् संशोधयितुं निर्मितः अध्यादेशः आर्थिक कार्यविधि वित्तीयोत्तरदायित्व प्रथम संशोधनाध्यादेशः नैजीकरण प्रथम संशोधनाध्यादेशश्च स्वीकृतोऽस्ति एवमेव उपवेशेन आर्थिक व्यावसायिक वातावरण सुधार निवेशाभिवृद्धि सम्बद्धान् कतिचिद् नेपालाधिनियमान् संशोधयितुं निर्मितः अध्यादेशः सहकारी सम्बद्धान् कतिचिद् नेपालाधिनियमान् संशोधयितुं निर्मितः अध्यादेशश्च स्वीकृतौ स्तः यद्यपि सर्वकारेण विभिन्नः षडध्यादेशः आनीतः सन्त्यपि भूमि सम्बद्धान् कतिचिद् नेपालाधिनियमान् संशोधयितुं निर्मितः एतद् विक्रमवर्षीयः अध्यादेशः सभायाः उपवेशेन प्रस्तुतः पारितान् अध्यादेशान् आधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः अध्यादेश हि योजना आयोगस्य अधिकारक्षेत्रं न संकुचितमस्ति इति अवदत् उपवेशे सुशासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्धान् कतिचिद् नेपालाधिनियमान् संशोधयितुं निर्मितम् अध्यादेशम् आधृत्य विहिते विमर्शने संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ् सर्वकारेण सांविधानिक मार्गात् देशस्य आवश्यकतायाः अनुसारेण अध्यादेशाः आनीताः सन्तीति चर्चयन् अध्यादेशानाम् अस्वीकारस्य औचित्यं न सिध्यतीति अवदत् एवमेव सहकारी सम्बद्धान् कतिचिद् नेपालाधिनियमान् संशोधयितुं निर्मितम् अध्यादेशमाधृत्य उत्थापितान् प्रश्नान् उत्तरयन् भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी सहकारी पीडितानां समस्यानां समाधानाय सर्वकारेण अध्यादेशाः आनीताः सन्तीति अवदत् तत्पूर्वं राष्ट्रियसभायाः ह्यस्तनोपवेशे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः एसपीवी नामकं टीकौषधम् आगामिनः वर्षात् सर्वकारस्य नियमित टीकौषधाधान कार्यक्रमेषु समावेश्यते इति असूचयत् उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ अधिकार दुरुपयोगानुसन्धानायोगस्य वार्षिकं प्रतिवेदनं प्रस्तोत् राष्ट्रसभायाः अपर उपवेशः अद्य दिवा एकवादने वसति प्रतिनिधिसभायाः ह्यस्तनोपवेशे एतद् विक्रमवर्षीयं निरातायात नियमन विधेयकम् आधृत्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः सैद्धान्तिक विमर्शनानन्तरं सर्वसम्मत्या स्वीकृतोऽस्ति विधेयकमाधृत्य विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी औद्योगिक क्षेत्रे निवेशस्य प्रवर्धनार्थं नेपाल्युत्पादनस्य आपण व्यवस्थापनाय आवश्यक नीतिगत सुधारार्थञ्च सर्वकारेण विधेयकमानितमस्ति इति अभाषत विमर्शने सांसदः वर्धमानायाः व्यापारहानेः नियमनाय स्थानीयानाम् उत्पादनानाम् आपण व्यवस्थापने बलं प्रदाय सीमप्रवेशबिन्दूनां सुदृढीकरणं सीमप्रवेशबिन्दुभ्यः जायमानं चौर्यं नियमयितुं चेतनावर्धयितुं च बलं देयम् इति च ऊचुः प्रतिनिधिसभायाः उपवेशे सांसदः देशस्य सामयिक विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितवन्तः एवमेव प्रतिनिधिसभायाः आकस्मिके शून्य च समये सांसदै उत्थापितान् प्रश्नान् उत्तरयन् ऊर्जो जलस्रोत सेचन मन्त्री दीपक खड्का मन्त्री परिषदः स्वीकृतिं विनैव स्वेच्छया कार्यं विहितमिति उक्त्वा नेपाल विद्युत प्राधिकरणस्य निर्देशकः कुलमान घिसिंहः तद्विषये स्पष्टीकरणाय निर्दिष्टोऽस्ति इति अवदत् प्रतिनिधिसभायाः अपर उपवेशः अद्य दिवा एकवादने वस्ता प्रधानमन्त्री केपी शर्मा ओली निगदति देशस्य आत्मनिर्भरतायाः मार्गे अग्रे नयनस्य विकल्पो नास्ति महोत्तरी जनपदस्य गौशाला नगरपालिकायाः प्रथमवडा क्षेत्रस्य रामनगरे ह्य नेपाल पल्प एण्ड पेपर इण्डस्ट्रीज इति कर्गजोद्योगस्य उद्घाटनं विदधानः प्रधानमन्त्री ओली औद्योगिक विकासाय वृत्त्युपार्जनानां सर्जनायश्च प्राथमिकता प्रदीयते इति उदैरयत्। प्रधानमन्त्री ओली मूलमार्गाणां सुनकौशिकी पथान्तरण प्रभृतीनां योजनानां कार्यं शीघ्रं सम्पादयितुं च प्रतिबद्धतां व्यक्तवान्। तदवसरे प्रधानमन्त्री ओली स्वस्यैव कर्गजस्य देशे प्रयोगस्य अवसराय व्यापारहानेः सन्तुलनस्य कृते च उद्योगेन योगदानं दत्त्वा देशम् आत्मनिर्भरं सम्पादयितुं सहयोगो विधीयते इति विश्वासं व्यक्तवान्। प्रधानमन्त्री ओली निजक्षेत्रेण विना समृद्धिः नाधिगम्यते इत्यत्र सर्वकारः स्पष्टोऽस्ति इति अवोचत्। भिन्न प्रसंगे प्रधानमन्त्री ओली अतःपरं राजतन्त्रस्य प्रत्यागमनं न भविष्यति इति उक्त्वा सर्वैः संविधानस्य अनुसारेण संचलनीयम् इत्यत्र बलं दत्तवान्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा निगदति नेपालस्य लोकतान्त्रिके आन्दोलने भूतपूर्व सैनिकैः प्रदत्तं योगदानं महत्वपूर्णमस्ति। सानिपावर्तिनी दलस्य केन्द्रीय कार्यालये ह्य आयोजिते कार्यक्रमे सभापतिः देउवा सर्वेषु भ्रातृ संघटनेषु शुभेच्छुक संघटनेषु च सुदृढेषु सत्सु नेपाली कांग्रेस दलमपि सुदृढं भवतीति अवदत्। वन वातावरण मन्त्री ऐनबहादुर शाही ठकुरी नेपालः जलवायु सम्बद्ध संकटैः प्रभावितानां देशानामपि प्रतिनिधित्वं करोतीति उक्तवान् अस्ति। भारतस्य नया दिल्ली नगरे आयोजितम् एतत् ख्रीष्टवर्षीयं विश्व सबल विकास सम्मेलनं सम्बोधयन् मन्त्री शाही नेपाल प्रभृतिषु अल्पविकसित देशेषु जलवायोः संकटस्य न्यूनीकरणाय विधातव्याः आवश्यकतायाः साम्प्रतिक वित्तीयस्य आन्तर्यस्य च विषययोः ध्यानाकर्षणं विहितवान्। तदवसरे मन्त्री शाही हिमालयेषु जलवायोः परिवर्तनस्य कारणेन सृष्टस्य प्रभावस्य विषये विश्वसमुदायस्य ध्यानाकर्षणं विधातुं नेपालेन आगामिनो ज्येष्ठमासस्य द्वितीयात् चतुर्थं दिवसं यावत् जलवायोः परिवर्तनं पर्वतानां मानवतायाश्च भविष्यमिति विषये प्रथम सगरमाथा शिखर संवादः काष्ठमण्डपे आयोक्ष्यमाणोऽस्ति इति संसूच्य सम्मेलने सहभागितायै अन्यरुणत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं नेपालस्य कृते विभिन्नानां शरणां देशानां नवनियुक्तैः आवासीयतर राजदूतैः स्वस्व पदस्य प्रमाणपत्रं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते पृथक् पृथक् समारोहे एते जनाः राष्ट्रपतेः पौडेलस्य समक्षं स्वपदस्य प्रमाणपत्रं प्रस्तुतवन्तः इति राष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। सुनसरी जनपदस्य इटहरी स्थाने अद्यतः अन्तर्राष्ट्रिय नाट्य महोत्सव आयोज्यते। एशियन पीपुल्स थिएटर फेस्टिवल सोसाइटी इति नाम्न्या संस्थया सर्वनाम नाट्य संस्थायाः सहकारेण एतत् विक्रमवर्षीयस्य कोशी प्रदेश पर्यटन वर्षस्य अवसरे एतत् ख्रीष्टवर्षीयः नाट्य महोत्सवः आयोक्ष्यते इति कार्यक्रमस्य मूल संयोजक मैट्रिक्स इटहरी संस्थायाः अध्यक्षः विक्रम श्री अज्ञापयत्। अस्यैव फाल्गुन मासस्य पञ्चविंश दिवसं यावत् आयोक्ष्यमाणे महोत्सवे त्रयोदशानां देशानां विंशतेः नाट्य संस्थानां चतुश्चत्वारिंशतः वैदेशिकानां कलाकाराणां च सहभागिता भविष्यति। प्रतिनिधि सभायाः अन्तर्गतायाः पूर्वाधार विकास समितेः सभापतिः दीपक बहादुर सिंह जलस्रोतो विधेयकं शीघ्रमेव संसदि प्रस्तोष्यते इति सूचितवान् अस्ति। जलूर्जा सम्बद्धायोगस्य सचिवालयेन ह्य आयोजिते कार्यक्रमे सभापतिः सिंह पूर्वाधार विकास समितौ विमर्शनस्य क्रमे स्थितं जलस्रोत विधेयकं सप्ताहद्वयस्य अभ्यन्तरे निष्कर्षं प्रापयित्वा सदने प्रस्तोष्यते इति असूचयत्।